इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य षष्ठम चरणाय प्रचाराभियानं ह्यः समाप्तम्। चरणेऽस्मिन् अष्टराज्यानां केन्द्रशासित प्रदेशानां च अष्टपञ्चाशत् लोकसभाक्षेत्राणि समाहितानि सन्ति, यत्र श्वः शनिवासरे मतदानं भविष्यति। ध्यातव्यमस्ति यत् अस्मिन् चरणे बिहारस्य अष्ट, हरियाणायाः सर्वाणि दश, जम्मूकश्मीरस्य एकं, झारखण्डस्य चत्वारि, देहल्याः सर्वाणि सप्त, ओडिशायाः षड्, उत्तरप्रदेशस्य चतुर्दश, पश्चिमबंगालस्य अष्ट आसनानि सम्मिलितानि सन्ति, यत्र नवाशीत्यधिकाष्टशतं यावत् जनाः प्रत्याशीभूताः सन्ति। मतदानं प्रातः सप्तवादनतः सायं षड्वादनपर्यन्तं कारयिष्यते। छत्तीसगढ़राज्ये ह्यः बस्तरमण्डले संघर्षे सप्त माओवादिनः मारिताः। मृतकानां शरीराणि घटनास्थलात् गृहीतानि। आरक्षिदलस्य वरिष्ठाधिकारिणः अस्य घटनायाः पुष्टि कृतवन्तः। आरक्षिदलानुसारं नारायणपुर दन्तेवाड़ा मण्डलयोः सीमायाम् एषः संघर्षः अभवत्। आबूझमाड़ वने माओवादिनः उपस्थितेः विषये सूचनां प्राप्य सुरक्षाबलानां एकः संयुक्तदलः अन्वेषण कार्यक्रमाय प्रस्थितः आसीत्। अस्मिन् अभियाने माओवादिनः आबूझमाड़ वने सुरक्षा कर्मचारिणाम् उपरि भुशुण्डि प्रहारं कृतवन्तः। सुरक्षाबलेनापि भुशुण्डि प्रहारस्य प्रतीकारं विहितम्। भुशुण्डि प्रहारे सप्त माओवादिनः मारिताः। सुरक्षाबलेन ख्यापितं यत् अस्मिन् संघर्षे अन्येऽपि कतिपय माओवादिनः व्रणिताः सन्ति। घटनास्थलात् माओवादिनः बृहद् मात्रायां शस्त्राणि विस्फोटकादीनि च प्राप्तानि सन्ति। सर्वकारेण प्रायः 6.8 लक्षं यावत् दूरभाष संयोजनानि अवैधरूपेण चिह्नितानि सन्ति। एते संयोजनानि आमान्य अस्तित्वहीन अवैध परिचय प्रमाणपत्रस्य केवाईसी प्रपत्राणां च उपयोगेन गृहीताः इति आशंका विद्यते। दूरसंचार विभागेन दूरसंचार सेवा प्रदातृभ्यः एतेषां चिह्नितानां दूरभाष संख्यानां तत्क्षणं पुनः सत्यापनाय निर्दिष्टः। सेवाप्रदातृभ्यः षष्ठी दिवसेषु चिह्नित दूरभाष संयोजनानां पुनः सत्यापनम् अनिवार्यम् अस्ति। विभागेन उक्तं यत् पुनर्सत्यापनं न सम्पन्नं चेत् सम्बन्धित दूरभाष संख्यानां विच्छेदनं भविष्यति। ऋतुविज्ञान विभागेन ह्यः उक्तं यत् दिल्ली, हरियाणा, चण्डीगढ़, पंजाब राज्येषु प्रचलितेषु तीव्रतापतरंगेषु न्यूनता यास्यति। ऋतुविभागेन उक्तं यत् आगामि त्रीणि दिनानि यावत् मुख्यतया राजस्थान गुजरातयोः तापतरंगस्य स्थितिः इतोपि संवर्धयिष्यति। आकाशवाणी वार्तायां प्रवदता वरिष्ठः ऋतुवैज्ञानिकः आरके जेनामणिः अवोचत् यत् दिल्ल्यां विगत त्रिषु दिवसेषु तापतरंगस्य स्थितिः न दृष्टा, परन्तु तापमानं 40°C उपरि एव आसीत्। सः अग्रे अवदत् यत् शनिवासरे षष्ठम चरणस्य निर्वाचने दिल्ल्यां तापतरंगस्य स्थितिः न प्रचलिष्यति इति। ऋतुविभागेन उक्तं यत् भारतस्य पूर्वभागेषु विद्युत वज्रपातेन सहैव वृष्टेः सम्भावना अपि विद्यते। अन्ताराष्ट्रिय ओलम्पिक समित्या पेरिसनगरे आगामिनि ओलम्पिक क्रीडायां भागं गृह्णन्तः क्रीडकानां उत्साह संवर्धनाय जनान् प्रेरयितुं लेट्स मूव इंडिया इति उपक्रमस्य आरम्भस्य घोषणा कृता अस्ति। एतत्पदाक्षेपः सामाजिक संजालमाध्यमेन देशस्य सर्वेभ्यः जनेभ्यः आन्दोलने सम्मिलितुम् आमन्त्रयति इति वार्ताः।